एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधिसभायाः ह्यस्तनोपवेशे वैकल्पिक विकास वित्त परिचालन विधेयक सम्बद्धं समितेः प्रतिवेदनं प्रस्तुतं वर्तते। उपवेशे अर्थसमितेः सभापतिः सन्तोष चालिसे विधेयक सम्बद्धं समितेः प्रतिवेदनं प्रस्तुतवान् आसीत्। उपवेशेन औद्योगिक सम्पत् सम्बद्धम् एतत् विक्रमवर्षीयं विधेयकं, जलपोत सञ्चालन व्यवस्थापन सम्बद्धं गत विक्रमवर्षीयं विधेयकं च प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषिते स्तः। उपवेशे उद्योग वाणिज्यापूर्ति मन्त्रिणा प्रस्तुतम् औद्योगिक सम्पत् सम्बद्धं विधेयकं, भौतिक पूर्वाधार यातायात मन्त्रिणा देवेन्द्र दाहालेन प्रस्तुतं जलपोत सञ्चालन व्यवस्थापन सम्बद्धं विधेयकं च प्रकरणगत विमर्शनाय समितौ प्रेषणीये इत्युक्त्वा प्रस्तुतः प्रस्तावः सभया सर्वसम्मत्या स्वीकृतोऽस्ति। तत्पूर्वं ह्यस्तनोपवेशे सांसदाः नेपालस्य लिपुलेक, लिम्पियाधुरा, कालापानी इति स्थानानां विषये, भारत चीन देशयोर्मध्ये सम्भूतायाः व्यापारिक संविधायाः विषये सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। उपवेशे सांसदाः नेपालस्य भूमेः विषये द्वाभ्यां प्रतिवेशिदेशाभ्यां विहितायाः संविधायाः विषयं सर्वकारस्य कार्यक्रमं च समस्पष्टयितुं याचनां विहितवन्तः। उपवेशे नेपाली काङ्ग्रेस दलस्य गगन थापा, नेकपा एमाले दलस्य महेश वर्तौला, प्रमुख प्रतिपक्षण नेकपा माओवादी केन्द्रस्य हितराज पाण्डे, राष्ट्रिय स्वतन्त्र दलस्य शिव नेपाली च नेपालस्य भूमिर्विषये स्वकीयां धारणां व्यक्तवन्तः। एवमेव सांसदाः विशेष समये सर्वकारस्य ध्यानमाकर्षयन् प्रतिनिधिसभायाः अपरोपवेश अद्य दिवा एकवादने वसति। प्रधानमन्त्री केपी शर्मा ओली निगदति नेपालं समृद्धं विधातुं सर्वकारः प्रवर्तितोऽस्ति, इत्यतः सर्वैः स्वस्वस्थानात् योगदानं प्रदाय सहयोगो विधातव्यः। शिष्णुपानी नेपालस्य प्रस्तुतिं जुरुक्क कर्णाली इति नामाख्यं कार्यक्रमं पूर्वेद्युः सम्बोधयन् प्रधानमन्त्री ओली विहितेभ्यः प्रयासेभ्यः, विकासस्य कार्येभ्यश्च तथैव महत्त्वं प्रदातुम् अनुरुन्धानः। अन्येभ्यः दोषारोपणस्य अपेक्षयापि कर्मठाः सन्तः प्रवर्तनेन नेपालः समृद्धो भविष्यति इति विश्वासं व्यक्तवान्। कमलादिवर्तिनः नेपाल प्रज्ञा प्रतिष्ठानस्य प्रेक्षालये विशिष्ट व्यक्तिनां दर्शकानां च सहभागितायां समायोजिते कार्यक्रमे प्रधानमन्त्री ओली आगामिनि ख्रीष्टवर्षे नेपालं विकासशील राष्ट्रे स्तरोन्नतं विधातुं पूर्वकार्याणि विधीयमानानि सन्ति इति अस्मारयत्। प्रतिनिधिसभान्तर्गतायाः कृषि सहकारी प्राकृतिक स्रोत समित्या भूमि सम्बद्धान् कांश्चित् नेपालादिनियमान् संशोधयितुं निर्मितम् एतद् विक्रमवर्षीयं विधेयक सम्बद्धं समितेः प्रतिवेदनं पारितीकृतं वर्तते। समितेः ह्यस्तनोपवेशेन बहुमतेन समितेः प्रतिवेदनं पारितीकृतम् अस्ति इति सभापतिः कुसुमदेवी थापा असूचयत्। उपवेशे भूमिव्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी, भूमिहीनानां, दलितानां, अव्यवस्थितावासानां च जनानां प्रभावकारी रूपेण व्यवस्थायाः विषय विधेयके समाविष्टोऽस्ति इति अगदत्। उपवेशे कतिपयै सांसदै विधेयके अधिकस्य विमर्शनस्य आवश्यकता अस्ति, यतः तत्कालं विधेयकं न पारितीकर्तुम् अनुरुद्धमासीत्। कतिपयै सांसदैः विधेयकं सभायां सम्प्रेष्य विस्तृतं विमर्शनं विधातुं बलं दत्तम् आसीत्। राष्ट्रिय सभान्तर्गतायां विधायन व्यवस्थापन समितौ संघीय सर्वकारीय सेवा विधेयकम् आधृत्य विमर्शनं सम्भूतमस्ति। समिते ह्यस्तनोपवेशे सांसदाः सर्वकारीय सेवायां संसद सम्बद्धायाः सेवायाः, न्यायसेवायाः, पशुचिकित्सा सेवायाः, स्वास्थ्यसेवायाश्च समावेशः करणीयः इत्युक्तवन्तः। प्रतिनिधिसभायाः अन्तर्गततया शिक्षा स्वास्थ्य सूचना प्रविधि समित्या विद्यालय शिक्षा विधेयकं पारितीकृतं वर्तते। समितेः ह्यस्तनोपवेशेन विद्यालय शिक्षा सम्बद्धं विधिम् एकीकर्तुं संशोधयितुं च निर्मितं विधेयकं दीर्घकालाद् उपसमितौ समितौ च विमृश्य ह्यः पारितीकृतं वर्तते। उपवेशेन प्रमुख प्रतिपक्षिण नेकपा माओवादी केन्द्रस्य रास्वपा राप्रपा दलयोश्च पृथक मतं संस्थाप्य विधेयकमिदं पारितीकृतं वर्तते। माओवादी केन्द्रस्य सांसदः देवेन्द्र दाहाल, महेन्द्र राय यादव, रेखा शर्मा, ज्ञानु बस्नेत सुवेदी च विद्यालय शिक्षाया सुधाराय आत्मभिः विधेयके उत्थापितानां विषयाणां सम्बोधनाभावेन पञ्चसूत्रीयं पृथक् मतं संस्थाप्य पारितीकृतम् अस्तीति असूचयन्। सञ्चार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ कथयति, जनतायाः नेतृत्वस्य च दर्शनत्वेन कार्येषु विहितेषु सत्सु पदं प्रतिनिधित्वं च सहजतया प्राप्तुं शक्येते। अखिल नेपाल महिला सङ्घस्य गण्डकी प्रदेश समितेः ह्यः प्रारब्धे द्वितीय सम्मेलने मन्त्री गुरुङ महिलाभ्यः राज्यस्य सर्वकारस्य च विभिन्न स्तरेषु अवसरः केनापि प्रदानस्य अपेक्षयापि स्वस्मिन् सामर्थ्यम् उत्पाद्य तत्र स्वत्वं प्रस्तुतव्यमिति बलं दत्तवान्। सञ्चार मन्त्री गुरुङ साम्प्रतिके आरक्षणे प्रतिनिधित्वे च मौनम् आचरितं सद् जनसङ्ख्याया आधारेण प्रतिनिधित्वस्य अधिकारस्य च विषयाः उपेक्षायां भविष्यन्तीति उदैरयत्। लुम्बिनी प्रदेशः पूर्ण टीकाकरणाधानस्य सुनिश्चिततायाः प्रदेशः उद्घुष्टोऽस्ति। मुख्यमन्त्रिणा चेतनारायण आचार्येण ह्यः प्रदेश राजधान्यां राप्ती उपत्यकायां देवखुरीस्थाने आयोजिते विशेष समारोहे लुम्बिनी प्रदेशः पूर्ण टीकाकरणाधानस्य सुनिश्चिततायाः प्रदेशः उद्घुष्टोऽस्ति। लुम्बिनी प्रदेशस्य सर्वेषु द्वादशसु जनपदेषु गतार्थिकवर्षे विहितेन सर्वेक्षणेन षोडशमासेभ्यः त्रयोविंशतिमासपर्यन्तम् केषु सप्तत्यां सहस्रेषु अष्टादशाधिक पञ्चशते च बालबालिकासु पञ्चदश मासानाम् अभ्यन्तरे प्राप्तव्यानि टीकाकरणानि प्राप्तानि सन्तीति सुनिश्चयनानन्तरम् एवं घोषणा विहितास्ति। भूस्खलनेन अवरुद्ध अरण्यको राजमार्गस्य कोदारीखण्ड सञ्चालितो स्थिति भौतिक पूर्वाधार यातायात मन्त्रालयेन ज्ञापितं वर्तते। नेपाल चीन देशयोः योजकस्य अस्य मार्गस्य तातोपानी सीमा प्रवेशबिन्दोः कोदारी निकटस्थे स्थले भूस्खलनेन मार्गखण्डोऽयम् अवरुद्धः आसीत् इति समाचाराः।